सीकर व्यतिकरं मरीचिभिः दूरयत्यवनते विवस्वती इन्द्रचाप परिवेश शून्यताम् निर्झरास्तव पितुर्व्रजन्त्यमी।
सीकरेति हे प्रिये अवनते नम्रीभूते अस्तंगत इति यावत् विवस्वति सूर्ये मरीचिभिः स्वकिरणैः सह सीकराणाम् जलकणानाम् सीकरोम्बुकणास्मृताः इत्यमरः। व्यतिकरम् सम्बन्धम् दूरयति दूरम् कुर्वति सति अमी पुरोवर्तिनः तव पितुः हिमालयस्य निर्झराः प्रवाहाः इन्द्रचापेन यः परिवेशः परिधिः परिवेशस्तु परिधिः उपसूर्यकमण्डले इत्यमरः। तेन शून्याः तेषाम् भावः तत्ता ताम् व्रजन्ति गच्छन्तीत्यर्थः। निर्झरकणपतितसायन्तनकिरणैः उद्भासमान इन्द्रचापपरिधितसूर्यस्य अस्तङ्गतत्वात् विलीनेति भावः।
तष्टतामरसकेसरस्रजोः क्रन्दतोर्विपरिवृत्तकण्ठयोः निघ्नयोः सरसिचक्रवाकयोः अल्पमन्तरमनल्पताम् गतम्।
दष्टेति हे प्रिये तामरससम्बन्धिनाम् केसराणाम् स्रक् याभ्याम् तयोः तथा विपरिवृत्तौ परस्परपराङ्मुखीभूतौ कण्ठौ ययोः यथा निघ्नयोः परस्पराधीनयोः अधीनो निघ्न आयत्तः इत्यमरः। अत एव क्रन्दतोः रुदतोः तथा सरसि स्थितयोः चक्रवाकयोः अल्पम् अन्तरम् वियोगः अनल्पताम् अतिशयितताम् गतम् प्राप्तमित्यर्थः।
स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् आविभातचरणाय गृह्णते वारिवारिरुहबद्धषट्पदम्।
स्थानमिति हे प्रिये दन्तिनः गजाः सल्लकीविटपाः वृक्षविशेषाः तेषाम् भङ्गैः खण्डैः वासितम् सुगन्धितम् आह्निकम् दैनम् स्थानम् अपास्य त्यक्त्वा विभातमारभ्येति आविभातम् यच्चरणम् आचरणम् सान्ध्यम् कृत्यमिति यावत् तस्मै तत्कर्तुम् वारिरुहेषु कमलेषु बद्धाः षट्पदाः भ्रमराः यत्र तादृशम् वारि जलम् गृह्णते करेण आददते इत्यर्थः। गम्योत्प्रेक्षा
पश्य पश्चिमदिगन्तलम्बिना निर्मितम् मितकथे विवस्वता लब्धया प्रतिमया सरोम्भसाम् तापनीयमिव सेतुबन्धनम्।
पश्येति हे मितकथे मिताः परिमिताः कथाः यस्याः तत्सम्बोधनम् हे मितभाषिणि प्रिये पश्चिमम् दिगन्तम् लंबते तथोक्तेन विवस्वता सूर्येण लब्धया प्रतिमया प्रतिबिंबेन कृत्वा सरस्संबंधिनां अंभसां तापनीयं सौवर्णं सेतोः बंधनमिव निर्मितं कृतमित्यर्थः इति त्वं पश्य तरंगित सरोजलेषु पतितं अत एव अविरलतया सहस्रधा विभक्तं स्वप्रतिबिंबमेव सूर्यनिर्मितः सेतुः इव इत्युत्प्रेक्षा तपनीयं शातकुंभं इत्यमरः ततः तस्य विकारः इत्यण्
उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहिता तपाः दंष्ट्रिणो वनवराहयूथपाः दष्टभङ्गुरभिसाङ्कुरा इव
उत्तरन्तीति हे प्रिये गाढः पङ्कः यत्र तादृशं पल्वलम् अल्पसरः वेशन्तः पल्वलं चाल्पसरः इत्यमरः विनिकीर्य स्वाधिवासेन विक्षिप्तं कृत्वा इत्यर्थः अतिवाहितः अतिक्रान्तः आतपः घर्मः यैः तथा दंष्ट्रिनः प्रशस्तदंष्ट्रायुक्ताः वनवराहाणाम् आरण्यकशूकराणां यूथं पान्ति रक्षन्ति ते वनवराहयूथपाः महान्तः वराहाः इत्यर्थः दष्टाः भङ्गुराः भङ्गशीलाः बिसाङ्कुराः मृणालतन्तवः यैः ते तथोक्ता इव उत्तरन्ति निःसरन्ति अर्थात् सरस इत्यर्थः अत्र बहिर्दृश्येषु दंष्ट्राङ्कुरेषु बिसाङ्कुरत्वोत्प्रेक्षणात् उत्प्रेक्षालङ्कारः
एष वृक्षशिखरे कृतास्पदः जातरूपरसगौरमण्डलः हीयमानमहरत्यया तपम् पीवरोरुपिबतीव बर्हिणः
एष इति हे पीवरोरु वृक्षशिखरे कृतम् आस्पदं स्थितिः येन तत्र स्थित इत्यर्थः एष पुरोवर्ती बर्हिणः मयूरः मयूरो बर्हिणो बर्हिः इत्यमरः कर्ता जातरूपस्य सुवर्णस्य चामीकरं जातरूपम् इत्यमरः यः रसः जलं तद्वत् गौरं पीतं मण्डलं बर्हसमूहः यस्य तादृशम् अह्नः दिवसस्य अत्ययः सन्ध्या तस्याः आतपं पिबतीवेत्युत्प्रेक्षा यतो हीयमानम् अन्यथा कथमस्य हानिः स्यादिति भावः
पूर्वभागतिमिरप्रवृत्तिभिः व्यक्तपङ्कमिव जातमेकतः खं हृतातपजलं विवस्वता भाति किञ्चिदिव शेषवत् सरः
पूर्वेति विवस्वता हृतं शोषितं आतपः जलमिव यस्य तादृशं खं व्योम पूर्वभागे याः तिमिरप्रवृत्तयः तमःप्रसाराः ताभिः कृत्वा ఏకతః ఏకత్ర భాగే వ్యక్తః పంకః యత్ర తదివ జాతం సత్. కించిత్ శేషవత్ ఈషజ్జలశేషి సర ఇవ భాతి. అస్తంగచ్చత్ అర్కాల్పాతపే కించిత్ జలశేషోత్ప్రేక్షణపూర్వక ఉపమాలంకారః.
ఆవిశద్భిరుటజాంగణం మృగైః మూలసేకసరసైశ్చ వృక్షకైః ఆశ్రమాః ప్రవిశదగ్ర్యధేనవః బిభ్రతి శ్రియముదీరితాగ్నయః.
ఆవిశద్భిరితి ఉటజస్య పర్ణశాలాయాః అంగణం, పర్ణశాలోటజో స్త్రియాం ఇత్యమరః. ఆవిశద్భిః ప్రవిశద్భిః మృగైః తథా మూలేషు యః సేకః సేచనం తేన సరసా ఆర్ద్రాః తథోక్తైః వృక్షకైః అల్పవృక్షైశ్చ ఉపలక్షితాః. తథా ప్రవిశంత్యః అగ్ర్యాః శ్రేష్ఠాః ధేనవః యేషు తథా ఉదీరితాః ఉద్దీపితాః. సాయం హోమార్థమితి భావః. అగ్నయః గార్హపత్యాదయః యేషు తథోక్తాః ఆశ్రమాః ఋషీణాం వాసస్థానాని. శ్రియం బిభ్రతి శోభంతే ఇత్యర్థః.
బద్ధకోశమపి తిష్ఠతి క్షణం సావశేష వివరం కుశేషయం షట్పదాయ వసతిం గ్రహీష్యతే ప్రీతిపూర్వమివ దాతుమంతరం.
బద్ధేతి బద్ధకోశం ముకులితం అపి కుశేషయం కమలం కర్తృ వసతిం గ్రహీష్యతే షట్పదాయ భ్రమరాయ ప్రీతిపూర్వం అంతరం అవకాశం అంతరమవకాశావధి ఇత్యమరః. దాతుమివేతి ఉత్ప్రేక్ష. క్షణం సావశేషం వివరం ఛిద్రం యస్య తథా తిష్ఠతి.
దూరమగ్రపరిమేయరశ్మినా వారుణీ దిగరుణేన భానునా భాతికేసరవతేవ మండితా బంధుజీవతిలకేన కన్యకా.
దూరమితి హే ప్రియే వారుణీ దిక్ పశ్చిమ దిక్. దూరం అగ్రే పరిమేయాః అల్పత్వాత్ పరిమాతుం శక్యాః రశ్మయః కిరణాః యస్య తాదృశేన అరుణేన భానునా. కేసరవత కింజల్కవత బంధుజీవం బంధుజీవాఖ్య వృక్షపుష్పం తదేవ తిలకం తేన మండితా కన్యకా ఇవ భాతి.
సామభిః సహచరాః సహస్రశః స్యందనాశ్వ హృదయంగమస్వనైః భానుమగ్ని పరికీర్ణ తేజసం సంస్తువంతి కిరణోష్మపాయినః.
సామభిరితి కిరణోష్మపాయినః కిరణానాం ఊష్మాణమేవ పిబంతీతి తథోక్తాః. సహస్రశః సహచరాః వాలఖిల్యాదయః ఋషయః. అగ్నౌ పరికీర్ణం నిక్షిప్తం తేజః యేన తం భానుం సూర్యం. స్యందనస్య రథస్య సంబంధినః యే అశ్వాః తేషాం ಹೃದಯಂಗಮಾಃ ಮನೋಹರಾಃ ಸ್ವನಾಃ ಯೇಷಾಂ ತೈಹಿ ಸಾಮಭಿಃ ಸಾಮವೇದೈಃ ಸಂಸ್ತುವಂತಿ ಸ್ತುತಿಂ ಕುರುವಂತೀತ್ಯರ್ಥಃ.
ಸೋಯಮಾನತ ಶಿರೋಧರೈರ್ಹಯೈಃ ಕರ್ಣಚಾಮರ ವಿಘಟ್ಟಿತೇ ಕ್ಷಣೈಃ ಅಸ್ತಮೇತಿ ಯುಗಭುಗ್ನಕೇಸರೈಃ ಸನ್ನಿಧಾಯ ದಿವಸಂ ಮಹೋದಧೌ.
ಸೋಯಮಿತಿ ಸೋಯಂ ಸೂರ್ಯಃ ದಿವಸಂ ಮಹೋದಧೌ ಸಂವಿಧಾಯ ಸಂಸ್ಥಾಪ್ಯ ಆನತಾಃ ನಮ್ರೀಭೂತಾಃ ಶಿರೋಧರಾಃ ಗ್ರೀವಾಃ ಯೇಷಾಂ ತೈಃ. ಅತಯೇವ ಕರ್ಣಯೋಃ ಚಾಮರೈಃ ವಿಘಟ್ಟಿತೇ ಮುಕುಲಿತೇ ಈಕ್ಷಣೇ ಯೇಷಾಂ ತೈಃ. ಯುಗೇನ ಸ್ಕಂಧಧಾರ್ಯಕಾಷ್ಠೇನ ಭುಗ್ನಾಃ ಮೃದಿತಾಃ ಕೇಸರಾಃ ಸ್ಕಂಧರೋಮಾಣಿ ಯೇಷಾಂ ತಥೋಕ್ತೈಃ ಹಯೈಃ ಅಶ್ವೈಃ ಕೃತ್ವಾ ಅಸ್ತಂ ಅಸ್ತಾಚಲಮೇತಿ ಗಚ್ಛತಿ ಅಸ್ತಸ್ತು ಚರಮಃ ಕ್ಷ್ಮಾಭೃತ್ ಇತ್ಯಮರಃ.
ಖಂ ಪ್ರಸುಪ್ತಮಿವ ಸಂಸ್ಥಿತೇರವೌ ತೇಜಸೋ ಮಹತ ಈದೃಶೀ ಗತಿಃ ತತ್ಪ್ರಕಾಶಯತಿ ಯಾವದುದ್ಗತಂ ಮೀಲನಾಯ ಖಲು ತಾವತಶ್ಚ್ಯುತಂ.
ಖಮಿತಿ ಪ್ರಿಯೇ ಖಂ ವ್ಯೋಮ ರವೌ ಸಂಸ್ಥಿತೇ ಅಸ್ತಂಗತೇ ಸತಿ ಪ್ರಸುಪ್ತಮಿವ ಭವತಿ ಯುಕ್ತಮೇವೇತ್ಯಾಹ ಮಹತಃ ತೇಜಸಃ ಈದೃಶೀ ವಕ್ಷ್ಯಮಾಣಾ ಗತಿಃ ಅಸ್ತಿ ಸಾ ಕಾ ಇತ್ಯಾಹ. ತತ್ ತೇಜಃ ಕರ್ತೃ ಉದ್ಗತಂ ಉದಿತಂ ಸತ್ ಯಾವತ್ ಸ್ಥಾನಮಿತ್ಯರ್ಥಃ ಪ್ರಕಾಶಯತಿ ಚ್ಯುತಂ ಭ್ರಷ್ಟಂ ಅಸ್ತಮಿತಂ ತದಿತಿ ಯಾವತ್ ತಾವತಃ ಸ್ಥಾನಸ್ಯ ಮೀಲನಾಯ ಸಂಕೋಚನಾಯ ಭವತಿ ಖಲು. ಯತ್ರ ತೇಜಃ ತಿಷ್ಠತಿ ತತ್ ಪ್ರಕಾಶತೆ ಯತೋ ಗಚ್ಛತಿ ತನ್ನ ಪ್ರಕಾಶತೆ ಇತಿ ಭಾವಃ ಉತ್ಪ್ರೇಕ್ಷಾಲಂಕಾರಃ.
ಸಂಧ್ಯಯಾಪ್ಯನುಗತಂ ರವೇರ್ವಪುಃ ವಂದ್ಯಮಸ್ತಶಿಖರೇ ಸಮರ್ಪಿತಂ ಯೇನ ಪೂರ್ವಮುದಯೇ ಪುರಸ್ಕೃತಾ ನಾನು ಯಾಸ್ಯತಿ ಕಥಂ ತಮಾಪದಿ.
ಸಂಧ್ಯಯೇತಿ ಸಂಧ್ಯಯಾಪಿ ಕರ್ತ್ರಿಯಾ ಅಸ್ತಶಿಖರೇ ಸಮರ್ಪಿತಂ ನಿಹಿತಂ ವಂದ್ಯಂ ಪೂಜ್ಯಂ ರವೇಹೆ ವಪುಹು ಮಂಡಲಂ ಕರ್ಮ ಅನುಗತಂ ಅನ್ವಗಾಮಿ ಯೋಗ್ಯಮೇವೈತದಿತ್ಯಾಹ. ಪೂರ್ವಮುದಯೇ ಪ್ರಾತಃಸಮಯೇ ಯೇನ ಪುರಸ್ಕೃತಾ ಅಗ್ರೇ ಕೃತಾ ಸಮ್ಮಾನಿತಾ ಚ. ಉದಯೇ ಪ್ರಾಗೇವ ಸಂಧ್ಯಾಗಮ ಇತಿ ಪ್ರಸಿದ್ಧಂ ಆಪದಿ ವಿಪತ್ಸಮಯೇ ಅಸ್ತಮಯೇ ಇತಿ ಯಾವತ್ ತಂ ಸೂರ್ಯಂ ಕಥಂ ನಾನು ಯಾಸ್ಯತಿ ಅಪಿತು ಯಾಸ್ಯತ್ಯೇವೇತ್ಯರ್ಥಃ ಸತೀಧರ್ಮ ಏಷ ಏವೇತಿ ಭಾವಃ.
ರಕ್ತಪೀತ ಕಪಿಶಾಃ ಪಯೋಮುಚಾಂ ಕೋಟಯಃ ಕುಟಿಲಕೇಶಿ ಭಾಂತ್ಯಮೂಃ ದ್ರಕ್ಷ್ಯಸಿ ತ್ವಮಿತಿ ಸಂಧ್ಯಯಾನಯ ವರ್ತಿಕಾಭಿರಿವ ಸಾಧು ಮಂಡಿತಾಃ.
ರಕ್ತೇತಿ ಹೇ ಕುಟಿಲಕೇಶಿ ಪ್ರಿಯೇ ಅಮೂಃ ಪುರೋಗತಾಃ ರಕ್ತಾಶ್ಚ ಪೀತಾಶ್ಚ ಕಪಿಶಾಶ್ಚ ತಥೋಕ್ತಾಃ ನಾನಾವರ್ಣಾಃ ಇತ್ಯರ್ಥಃ. ಪಯೋಮುಚಾಂ ಕೋಟಯಃ అశ్రయః స్యాత్కోటిరస్రౌ చాపాగ్రే సంఖ్యాభేద ప్రకర్షయోః ఇతి విశ్వః భాంతి తాః త్వం ద్రక్ష్యసీతి హేతోః అనయా సంధ్యయా కర్త్ర్యా వర్తికాభిః చిత్రశలాకాభిః సాధు యథా తథా మండితాః ఇవ భూషితాః కిము ఇత్యుత్ప్రేక్ష్య.